नित्यानन्द महोदय, भवान् जानाति वा ध्यानमन्त्रं मङ्गलं कर्तुं शक्नोति वा?
जालपुटे अष्टाध्याय्याः समग्रदृष्टिः इति सर्वत्रमस्ति, तद्
स्वीकरोतु। हा, तत् जानामि, परन्तु मङ्गलश्लोकं मम समीपे नास्ति।
तद् अद्य मास्तु, पठ्य आरम्भं करोतु।
अस्तु अस्तु, सर्वे समग्र अष्टाध्याय्याः समग्रदृष्टिः इति करपत्रे नत्वप्रकरणं अभवत्, तर्हि आहत्य इति पठनीयं। प्रथमं गणेशन् महोदय, भवान् पठति वा?
अस्तु महोदय, अहं पठामि।
अस्तु, नत्वप्रकरणं तद् आरभ्य अपि पठितुं शक्नुमः किल?
अस्तु महोदय, नत्वप्रकरणम् आरभ्य एक अहम् इदानीम् अहं पश्यामि, किञ्चित् कालं कुर्मः। द्वित्वप्रकरणमस्ति, ततः परं नत्वप्रकरणम् आगच्छति। नत्वप्रकरण तस्मात् अहं करोमि। रषाभ्यां नो नः समानपदे, अष्टाध्याये चतुर्थपादे प्रथमसूत्रं, रेपशकाराभ्याम् उत्तरस्य नकारस्य नकारादेशो भवति समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः पूर्णं तिसृणाम्। अहं विवरणं कर्तुं न शक्नोमि इति मन्ये, एवं पठामि नो चेत् किञ्चित्
पठतु महोदय।
सेकेण्ड् बिन्दुः, अट् कुट्वाङ् नुं व्यवाये अपि अष्टमाध्याये चतुर्थपादे द्वितीयसूत्रम्, अट् कवर्गः पवर्गः आं नुम् इत्येतैः यथा सम्भवं मिलितैः व्यवधाने अपि नस्य नः स्यात् समानपदे इति एतत् सूत्रम्। अनुवृत्तिसहितसूत्रम् अट् कुप् वाङ् नुं व्यवाये अपि रषाभ्यां नो नः समानपदे करणं मार्गेण इति दत्तम्। तृतीय करणं तत्र नकारं भवति इति तत्र। अस्तु अस्तु महोदय, प्रतिपदिकान्तं नुं विभक्तिषु च, सारि क्षणिकं, प्रातिपदिकान्तं प्रातिपदिकान्तनुम्भक्तिषु च इति अष्टमाध्याये चतुर्थपादे एकादशतमसूत्रं, समासप्रसङ्गे पूर्वपदस्य निमित्तात् परस्य येषु स्थितस्य नस्य नो वा स्यात् अनुवृत्तिसहितसूत्रं, पूर्वपदात् रषाभ्याम् अट् कुप् वान् नुं व्यवाये अपि नो नः प्रातिपदिकान्तनुं विभक्तिषु वा, एक्साम्पल् तत्र दत्तमस्ति, व्रीहि वापि नौ इति तस्य नकारस्य नकारः भवति। तर्हि आहत्य पाणिनेः प्रकरणरीत्या लेखनेन सूत्राणां लघुत्वं सिद्धम्, अपि च तेषाम् आयोजनम् अतिस्पष्टम्। अस्माकं कृते प्रकरणाधारिणा अभ्यासेन सूत्रनैपुण्यं जायते, अपि च सामग्री कुत्र स्थिता इति ज्ञायते। अष्टाध्यायी क्रमस्य पठनेन अनेके महान्तो लाभाः। अग्रे पठामि महोदय,
पूर्णं करोतु महोदय।
अस्तु अस्तु महोदय, प्रक्रियाग्रन्थेषु सूत्राणि इतस्ततः स्वीकृत्य पदनिर्माणं भवति, अनेन कारणेन सूत्रक्रमः भग्नः भवति भग्नो भवति अनुवृत्तिः न ये प्रकटः सूत्राणां बोधार्थं महान् सङ्घर्षः सारांशे पाणिनये स्वयं प्रकरणरीतिः रोचते खलु तदा एव अयं मार्गः तेन स्वीकृतः तस्य मार्गचयनस्य किञ्चन कारणं स्यात् तर्हि पाणिनेः पद्धतेः लाभम् आस्वादयाम सो इदानीं पाणि प्रकरणरीत्या
वयं
पठामः प्राधान्यं तत्र वयं सम्यक् सूत्रस्य अर्थं न वयं न जा वयं न जानीमः
इदानीं अनुवृत्ति किम् इति वयं न जानीमः किमर्थम् इत्युक्ते भिन्नभिन्न अध्यायतः नीतं भवति परन्तु अत्र प्रकरणरीत्या वयं ज्ञातुं न शक्नुमः
इति उक्तम् अत्र अस्तु महोदय
उत्तमं महोदय धन्यवादः धन्यवादः इदानीं लक्ष्मी भगिनी भवती पठितुं शक्नोति वा अष्टाध्यायाः मानचित्रम्
हा भगिनि एकनिमिषम्
अस्तु भगिनि
अष्टाध्यायाः मानचित्रम् अधः अष्टाध्यायाः मानचित्रं किमिति अवलोकयाम अष्टाध्याय्याम् अष्टौ अध्यायाः सन्ति प्रत्येकस्मिन् अध्याये चत्वारः पादाः पादेषु सूत्राणि क्रमेण भवन्ति प्रत्येकं सूत्रस्य स्वस्य सूत्रसङ्ख्या सङ्ख्यायां भागत्रयं प्रथमा सङ्ख्या अध्यायस्य द्वितीयसङ्ख्या पादस्य तृतीयसङ्ख्या सूत्रस्य यथा इको यणचि षष्टाध्यायप्रथमपादे षष्टसप्ततितमसूत्रम् इदं सूत्रं षष्ठे अध्याये तत्र प्रथमे पादे सूत्रसङ्ख्या षष्टसप्तति अत्र अष्टाध्याय्याः षट्सप्तति अस्तु विवरणं ददामि वा
ददातु जानाति चेत् ददातु वयं सर्वे
प्रयत्नं करोमि
अस्तु अस्तु चिन्ता मास्तु
अष्टाध्याय्याम् अष्ट अध्यायाः सन्ति प्रत्येकस्मिन् अध्याये चत्वाराः पादाः सन्ति तत्र पादेषु सूत्राणि क्रमेण भवन्ति इति अस्ति प्रत्येकं सूत्रस्य स्वस्य स्वस्य सूत्रसङ्ख्या अत्र अस्ति सङ्ख्यायाम् अत्र भागत्रयः सङ्ख्यायां भागत्रयः अस्ति प्रथमसङ्ख्या अस्ति अध्यायस्य निरूपणं करोति द्वितीयसङ्ख्या पादस्य तृतीयसङ्ख्या अस्ति सूत्रस्य अस्ति उदाहरणमस्ति षष्टाध्यायप्रथमपाद षट्सप्ततितमसूत्र इति इदं सूत्रे षष्टाध्याये तत्र प्रथमपादे सूत्रसङ्ख्या षट्सप्तति इति एकैकस्मिन् अध्याये के मुख्यविषयाः अन्तर्गताः इति यदा जानीमः तदा कस्यचित् सूत्रसङ्ख्यायाः दर्शनेन तस्य सूत्रस्य कीदृशं कार्यं स्यात् इति अनुमानं कर्तुम् अर्हामः अधः एकैकस्य अध्यायस्य केचन प्रमुखविषयाः दत्ताः सर्वं ज्ञात्वा नोक्तं किञ्च अधः यत् दत्तं बुद्धं चेत् मनसि अष्टाध्याय्याः एका दृष्टिः सिद्धा भविष्यति अत्र किञ्चित् विवरणमस्ति अष्टाध्याये के मुख्यविषयाः सन्ति अत्र अध्यायम् अन्तर्गतः विषयाः के अस्ति इति अधः दत्तम् अस्ति एतद् वयं वदामः किञ्चित् दृष्ट्वा अवलोकयामः
एकवारं वयं मुख्यविषयं किमिति वयं ज्ञातुं शक्नुमः इति अस्ति प्रथम अध्यायस्य मुख्यविषयं भवति संज्ञासूत्राणि इति भवती पठतु भगिनि तृतीय अध्यायपर्यन्तं पठतु।
अस्तु, प्रथम अध्याये अस्ति संज्ञासूत्राणि अस्ति, परिभाषासूत्राणि अपि अस्ति प्रथम अध्याये। द्वितीय अध्याये समासाधिकारः, सर्वे समासाः विहिताः, अव्ययीभावः, तत्पुरुषाः, बहुव्रीहि, द्वन्द्वः। द्वितीय अध्याये अस्ति समासविषयाः, सर्वे समासविषयाः द्वितीय अध्याये अस्ति। अनन्तरं विभक्तीनां विधानं क्रमेण द्वितीय, चतुर्थी, तृतीय, पञ्चमी, सप्तमी, प्रथमा, षष्ठी इति विभक्तयः। अत्र द्वितीय अध्याये अपि विभक्ति समासविषय अपि च विभक्तिविषयाः द्वितीय अध्याये अस्ति। अनन्तरं तृतीय अध्याये तृतीयः, चतुर्थः, पञ्चमः च अध्यायाः प्रत्ययाध्यायाः, प्रत्ययाध्यायाः हा प्रत्ययानां विषये आम् इत्युच्यन्ते। अत्र धातुभ्यः प्रातिपदिकेभ्यश्च सर्वे प्रत्ययाः विहिताः भवन्ति। अत्र तृतीय अध्याय अनन्तरं
प्रत्ययविषये धातुतः के के प्रत्ययाः प्रातिपदिकेभ्यः के के इति सर्वे तत्र तृतीयाध्याये भवति इति। अग्रेपि पठतु तृतीयाध्याये के के सन्ति।
तृतीयाध्याये धातुभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः सन्ति। प्रथममस्ति सनादयः प्रत्ययाः, विकरणप्रत्ययाः, कृत् प्रत्ययाः, भूतार्थे, वर्तमानार्थे, भविष्यतार्थे, लकारप्रत्ययाः, भूतार्थे, वर्तमानार्थे, भविष्यतार्थे च, कर्मणि भावे च कृत् प्रत्ययाः, लकारप्रत्ययाः, स्त्रियां कृत् प्रत्ययाः। एते षड् विषयाः तृतीय अध्याये अस्ति।
अस्तु, इदानीं प्रथमाध्याये संज्ञासूत्राणि भवन्ति, द्वितीय अध्याये समासविषयाणि
भवन्ति, विभक्तिविषयाः। प्रथमाध्याये संज्ञासूत्राणि, परिभाषासूत्राणि अस्ति, द्वितीयाध्याये समासः अपि च विभक्ति अस्ति, तृतीयाध्याये कृत् प्रत्ययाः अस्ति, सनादिप्रत्ययः अस्ति, विकरणप्रत्ययः अस्ति, लकारविषयः अस्ति,
प्रत्ययानां विषये त्रयः अध्यायाः, तृतीय, चतुर्थ, पञ्चम अध्यायाः प्रत्ययाध्याः, मिलित्वा प्रत्ययाध्याः इति। उत्तमं भगिनि, धन्यवादः।
धन्यवादः।
लतिका भगिनी भवती पठति वा अग्रे चतुर्थाध्यायतः?
भगिनी अहं तद् करपत्रं न दृष्टं कुत्र अस्ति इति अहं न जानामि। मम हस्ते नास्ति
भगिनी, वाट्सप् मध्ये अस्ति,
वाट्सप् मध्ये
लास्ट् वीक् भगिनी प्रेषितवती,
लास्ट् वीक्
भगिनी
प्रेषितवती। अनन्तरं पठामि, अत्र दृष्ट्वा इदानीं वदतु, अनन्तरं पठामि।
अस्तु अस्तु, चिन्ता नास्ति। नित्यानन्द महोदय, भवान् पठति वा?
आमां, चतुर्थ अध्याय प्रातिपदिकेभ्यः ये ये प्रत्यया विहिता ते सर्व अत्र उक्ताः। स्त्रिया ये प्रत्ययाः तद्धितधिकारः
इत्युक्ते तृतीयाध्याये धातुतः के के प्रत्ययाः विहिताः इति उच्यते। अत्र चतुर्थ अध्याये प्रातिपदिकेभ्यः ये ये प्रत्ययाः विहिताः इति सर्वे अत्र सन्ति।
महोदय, तत्र स्त्रियां इति एक पदं, तत् किं तस्य अर्थः किम् इति
अहमपि सम्यक् न जानामि, परन्तु स्त्रीलिङ्गे ये तिन् प्रत्यया इत्यप् डाप् इति भवति इति अहं चिन्तयामि। अहमपि न जानामि महोदय, स्त्रीलिङ्गे ये ये शब्दाः वर्तन्ते ते सर्वे के तत्र प्रत्ययानां तत् प्रत्ययः अत्र उच्यन्ते इति अहं चिन्तयामि.
क्वान्तप्रत्ययलिङ्ग भिन्न अस्ति न क्वान्त प्रत्ययः अस्ति कृतवान् कृतवती स्त्रीलिङ्गप्रत्ययः भिन्न
न गौरी इति शब्दमस्ति चेत् शक्ति भक्तिः एवम् अस्ति चेत् तिन् इति प्रत्ययः भवति ते सर्वे स्त्रीलिङ्गप्रत्ययः स्त्रीलिङ्गशब्दाः तत्र तदेव अत्र उक्तमस्ति
स्त्रीलिङ्ग चतुर्थ अध्याये
तत् विषये अपि के के प्रत्ययाः तद्धितप्रत्ययाः अपि अत्र सन्ति इति
तद्धितप्रत्यय गोस् अप् टु पञ्चम अध्याय आल्सो तद्धितप्रत्ययः विभक्ति संज्ञकः प्रत्ययः अव्यय अव्ययसंज्ञकाः प्रत्ययः संज्ञकाः प्रत्ययः द्विविध अस्ति विभक्ति अव्यय समानान्ता अधिकारः
उत्तरपदस्य
समासान्ता अधिकारः उत्तरपदस्य प्रत्यय दीर्घपन्ता दीर्घपथः सर्वरात्रि न अवगतम्
अत्रापि समासविषये वयं दृष्टवन्तः द्वितीय अध्याये समासाधिकारः इति अस्ति अत्रापि अस्ति पञ्चमाध्याये अपि यथा तद्धिताधिकारः चतुर्थ अध्याये अपि अस्ति पञ्चमाध्याये अपि अस्ति एवं समासाधिकारः द्वितीय अध्याये अपि अस्ति अत्रापि अस्ति अष्ट अध्याये अपि अग्रे पठतु महोदय षष्ठाध्याय
द्वित्वप्रकरणम् इति कारपत्रे दृष्टवन्तः अस्माभिः द्वितीयप्रकरणं दादा ददाति सम्प्रसारणं जानामि
कर् इति भवति गृह इति भवति तदेव सम्प्रसारणं
सन्धिसहिताधिकार रचितमस्ति परिचित अस्ति तत्र स्वरसन्धि सन्धि सन्धि तु परि सर्वेण परिचित विषयः अस्ति सन्धिसहिताधिकार अत्र स्वरसन्धि विधायकसूत्राणि सन्ति स्वरसन्धि यनसन्धि गुणसन्धि वृद्धिसन्धि सवर्णदीर्घसन्धि इत्यादयः ये सर्वे परिचित विषयः अस्ति चतुर्थपादः अङ्गधिकारः षष्ठाध्याये चतुर्थपादे प्रथमं सूत्रम् आरभ्य सप्तमध्याये चतुर्थपादे सप्तदशी सूत्रपर्यन्तम् अङ्ग किम् इति सप्तनवतितम सूत्रम् अङ्ग किम् इति न ज्ञायते चेत् इदं कारपत्रं पठ्यताम् अङ्गकार्य कीदृशम् इत्यस्य कृते अग्रे अस्मिन् करपत्रे विषय इतोपि विस्तारितः अङ्ग अधिकार प्रातिपदिकम्
अङ्गम् इत्युक्ते प्रत्ययानां पूर्वे के के भागाः सन्ति ते सर्वे अङ्गमिति उच्यते तत् विषये उक्तमस्ति चतुर्थपादे षष्ठाध्याये द्वित्वप्रकरणमस्ति सम्प्रसारणमस्ति स्वरसन्धिः विधायकसूत्राणि सन्ति चतुर्थपादे अङ्गाधिकारः अपि अस्ति इदानीं सप्तमाध्यायः भवानेव पठतु महोदय अनन्तरं रामनाथन् महोदय
सप्तमाध्याये अङ्गकार्यं पुनः अस्ति अध्याये षष्ठामी अस्ति अङ्गकार्यं सप्तमाध्यायः अपि अस्ति. अङ्गात् परस्य प्रत्ययादेशः इडागम, इडागमप्रकरणं यथा खादितवान् इत्यस्मिन् खादधातु इडागम क्वतु
तवत् अत्र खादितवान् इति अस्ति, तत्र तवत् प्रत्यय भवति, मध्ये इकारः श्रूयते, तदेव इडागमः.
इडागमः खादितवान् सर्वधातुकप्रत्यये परे अङ्गकार्यं. सार्वधातुकधातुकयोः पुगन्धलघु पदस्य च सर्व अस्माभिः परिशीलितं पूर्वे.
धातोः अनन्तरं धातो परे सार्वधातुकप्रत्ययः अस्ति चेत् तत्र गुणकार्यं भवति, अङ्गकार्यम् इति उच्यते. तत् वयं पठितवन्तः विस्तरेण, एतत् सार्वधातुक आर्धधातुकयोः इति सूत्रम्, अपि च पुगन्तलघुपदस्य इति सूत्रमपि. अनन्तरं चतुर्थबिन्दु,
चतुर्थबिन्दु वृद्धिप्रकरणं. वृद्धिप्रकरणं निति इति सन्धिमेषु वृद्धि सन्धि भिन्न अस्ति न, वृद्धि सन्धि नास्ति नास्ति वृद्धिसन्धि एकविषयः अस्ति, भिन्न अस्ति.
वृद्धिसन्धि इति अहं न चिन्तयामि, दीर्घत्वम् इति अहं चिन्तयामि. पूर्वं वयं किञ्चित् पठितवन्तः, परन्तु भगिनी आगत्य विवरणं करोति इति चिन्तयामि.
निति किति तदिशेषु
पञ्चमबिन्दु,
पञ्चमबिन्दु अभ्यासकार्यप्रकरणं. यत् कार्यं भवति द्वित्वानन्तरं यथा ददाति द्वित्वप्रकरणं.
अहं चिन्तयामि दा इति द्वित्वं भवति, तत्र दीर्घदा ह्रस्वदा अभवत्, तदेव अभ्यासकार्यम् इति अहं किमर्थं दीर्घ दा इति अक्षरं कथं द इति ह्रस्वम् अभवत् इति, तत् तदेव अभ्यासकार्यम् इति. अभ्यासम् इत्युक्ते यत् द्वित्वं यस्य अक्षरस्य यस्य वर्णस्य द्वित्वं भवति तद् अभ्यासम् इति पूर्वं वयं द्वित्व प्रकरणे वयं पठितवन्तः. अष्टाध्याय अष्टमाध्यायः भवान् पठित्वा पूर्णं करोतु.
अष्टमाध्याय पदस्य इत्यधिकार अष्टमध्याय प्रथमपादे षोडश आरभ्य अष्टमध्याय तृतीयपादे
त्रयोदश
सिक्स्टीन् इस् रिटन् इन् मै करपत्रं. प्रिण्टिङ्ग् एरर् मे बि प्रिण्टिङ्ग् एरर् इस् देर् somewhere, so they might have corrected in the next version. So I am saying 16 here. Ashtamadhyaya Tritiya Pade Pancha Panchati Shata Sutram.
Pancha
Pancha Shata Sutram. Purvatra Siddhatva Adhikaraha Hala Sandhi Visarga Sandhi Natva Prakaranam. Natva Prakaranam Iti Karapatre दृष्टवन्तः. नत्वप्रकरणं फलं फलानि किन्तु पुष्पं पुष्पाणि. मातु अष्टाध्यायी सूत्रपाठपुस्तकस्य पृष्ठसङ्ख्या एकादश ते तः अष्टविंशति प्रत्येकम् अष्टविंशति अष्टाविंशति प्रत्येकम् अध्यायस्य
पर्यन्तं प्रत्येकम् अध्यायस्य
पादस्य च सारांश इतोपि विस्तारेण उक्तः.
इत्युक्ते षष्ट भवान् षष्टाध्यायतः पठितवन्तः किल, षष्टाध्याये द्वित्वप्रकरणमस्ति, सम्प्रसारणविषयम् उक्तमस्ति, स्वरसन्धि विधायकसूत्राणि, अनन्तरम् अङ्गाधिकारः उक्तमस्ति. सप्तमाध्याये अङ्गकार्यम्, अङ्गकार्ये इडागमं कथं भवति, अङ्गात् परस्य प्रत्ययस्य आदेश वृद्धि अभ्यासकार्यं सर्वम् अङ्गकार्यम् इति उच्यते, तत् सप्तमाध्याये भवति. अष्टमाध्याये पदस्य इति अधिकारः, पूर्वत्र सिद्धम् इत्युक्ते भगिनी उक्तवती चत्वारः पादाः सन्ति चेत् द्वितीयपादतः अष्टमाध्यायस्य द्वितीयपादतः अन्तपर्यन्तं विहाय यत् अस्ति तदेव पूर्वत्रासिद्ध अधिकारः इति उक्तवती. अनन्तरं हलसन्धि विसर्गसन्धि अस्ति, लत्वप्रकरणमपि अत्र उक्तमस्ति. मातुः पुस्तकमस्ति चेत् तत्र पुटसङ्ख्या दत्तमस्ति, एकादशपुटतः अष्टाविंशतिपुटपर्यन्तं प्रत्येकम् अध्यायस्य प्रत्येकपादस्य अपि सारांशः, के अधिकारसूत्राणि सन्ति, के अधिकार विधिसूत्राणि सन्ति इति सर्वं पृथक् पृथक् दत्तमस्ति. धन्यवादः महोदय.
धन्यवादः.
धन्यवादः. एकवारं वयं प्रथमाध्याये किं दत्तमस्ति, संज्ञासूत्राणि दत्तमस्ति, द्वितीय अध्याये समासाधिकारः, अनन्तरं विभक्तीनां विषयः, तृतीयचतुर्थपञ्चमा अध्याये प्रत्ययविषयाः, तत्र तृतीयाध्याये धातुतः के के प्रत्ययाः विहिताः सन्ति इति अस्ति, अनन्तरं चतुर्थ अध्याये प्रातिपदिकेभ्यः तः के के प्रत्ययाः विहिताः सन्ति इति, तत्र स्त्रीप्रत्ययः, अनन्तरं तद्धित अधिकारः अपि दत्तमस्ति. पञ्चमाधिकारे पुनः तद्धित प्रत्ययाः, विभक्तिसंज्ञक प्रत्ययाः, अव्ययसंज्ञकप्रत्ययाः, तत् अत्रापि समासान्त अधिकारः अस्ति. षष्ठाध्याये द्वित्वप्रकरणम्, अनन्तरं सम्प्रसारणं, सरसन्धिविषयः, अङ्गाधिकारः इति अस्ति. सप्तमाध्याये अङ्गकार्यं के के इति सूत्राणि भवन्ति, तत्र मुख्यविषयमेव अङ्गकार्यं, केवलम् अङ्गकार्यम् इति न इति अहं चिन्तयामि, तत्र मुख्यविषयाः के के इति एक ब्राड् लेवल् ब्राड् लेवल् अण्डर्स्टाण्डिङ्ग् अस्ति. अष्टमाध्याये पदस्य इति अधिकारः, पूर्वत्रासिद्ध इति अधिकारः, हलसन्धि अस्ति, विसर्गसन्धि अस्ति, लत्वप्रकरणं दत्तमस्ति. अस्तु, इदानीं रामनाथन् महोदय भवान् पठितुं शक्नोति वा अधिकारसूत्राणि?
अधिकारसूत्राणि केषाञ्चित् मुख्य अधिकारसूत्रं कार्यक्षेत्रं जानीमश्चेत् सर्वाष्टाध्यायी आकृतिः सौकर्येण मनसि तिष्ठति. अधिकारसूत्रम् इत्युक्तौ तादृशं सूत्रं यस्य पूर्णरूपेण अनुवृत्तिः भवति बहुषु सूत्रेषु. अतः कानिचन प्रमुख्य अधिकारसूत्राणि दत्तानि तेषां कार्यक्षेत्रमपि सूचितं, नाम कस्मात् सूत्रात् आरभ्य किं सूत्रं पर्यन्तं तस्य प्रभावः इत्युक्ते अधिकारसूत्रम् इत्युक्ते पूर्णसूत्रं भवति. अधिकारसूत्रम् अष्टाध्यायी पूर्णसूत्रम् इत्युक्ते प्रभावि सूत्राणि अनुवर्तते, किन्तु बहुषु सूत्राणि अनुवर्तते. अस्य के के सूत्राणि किं किं कार्यं भविष्यति उदाहरणानि अनुवर्तते. पर्यन्तं तस्य प्रभावः किं किं सूत्राणि का अधिकारसूत्रं एक्साम्पल् दत्तमस्ति.
अहं पठितवती अत्र मातुः पुस्तकमेव सरलतमविधि इति अस्ति, संस्कृतसरलतमविधि इति एकं पुस्तकं पठितवती. तत्र दत्तमस्ति उदाहरणं दत्तमस्ति, यथा एलेक्ट्रिसिटि बोर्ड् इति अस्ति चेत् तत्र कार्यं कोऽपि कर्मकरः तत्र ये कार्यं करोति अधिकारी अस्ति चेत् सः गृहं गच्छति, तस्य पवर् कुत्र भवति इति, तदेव अधिकारसूत्रम् इति. किं सूत्रं पर्यन्तं तस्य अधिकारं प्रचलति इति अर्थः, तदेव अनुवृत्तिरूपेण भवति. उदाहरणतया कानिचन अधिकारसूत्राणि अधोः दत्तमस्ति अधोभागे. पठतु पठतु महोदय, कृपया पठतु.
प्रथम प्रत्ययः टीकाभागे प्रथमसूत्रम् अधिकारः
प्रथम अध्याये न महोदय, तृतीय अध्याये प्रथमपादे प्रथम
तृतीय अध्याये प्रथमभागे प्रथमसूत्रम् अधिकारः इत्युक्ते तृतीय अध्याये प्रथमपादे प्रथम सूत्रम् पञ्चम अध्याये चतुर्थपादे एकशतम् अधिकं षष्टम एकशतम् षष्टम अधिकम् एकशतम्
षष्टि षष्टि अधिक षष्टि अधिक एकशतम्
षष्टि अधिक एकशतम्
तत्सूत्रं पर्यन्तं तस्य अधिकारः प्रचलति प्रत्ययः इति.
यत्र कस्यचित् विधानं भवति तत्र तत्र प्रत्यय आगत भवति, यत्य विधानं सञ्जतं तस्य
प्रत्ययेषु
त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः अनुवर्तते.
इत्युक्ते अत्र तृतीय अध्याये प्रथमपाद आरभ्य पञ्चमाध्याये अन्तपर्यन्तम् इति वा न जानामि, परन्तु षष्ट्यधिक एकशततमसूत्रपर्यन्तम् अस्य पद प्रत्ययः इति अधिकारस्य अधिकारं चलति त्रिषु अध्यायेषु.
प्रत्येकं सूत्रस्य अर्थ एवम् अन्वयः यत् विहितं तस्य प्रत्यये शम्य भवति यथा
विधि यत् विहितमस्ति तस्य संज्ञा भवति प्रत्यया इति.
यस् वर्तमाने लट् अस्मिन् सूत्र अस्मिन् सूत्रे प्रत्ययः
भगिनि
वदतु भगिनि
किं पठन्तः स्मः
वयम् अष्टाध्यायाः समग्रदृष्टिः इति करपत्रमस्ति वा
अस्ति
तस्य सि इति बिन्दु अधिकारसूत्राणि इति पुटसङ्ख्या षट्
पुटसङ्ख्या
सप्तम सप्तमपुटसङ्ख्या सप्तम आम् षट् न सप्तम पठतु महोदय वर्तमाने लट् इति
वर्तमाने लट् अस्मिन् सूत्रे प्रत्येक इति सूत्रम् उपविश्य पठति यत् लट् विहित अस्ति अतः तस्य प्रत्यय शम्य भवति. ओके वर्तमाने लट् सूत्रस्य प्रत्यय शम्य भवति
वर्तमाने लट् इति अस्ति चेत् अत्र लट् इति विहितमस्ति अतः लट् इत्यस्य नाम भवति प्रत्ययः प्रत्ययसंज्ञा भवति
लट् इत्युक्ते प्रत्ययः भवति
लट् विहितं यत् विहितं तस्य संज्ञा प्रत्यय इति इति प्रत्यय इति अधिकारं वदति
प्रत्ययस्य अधिकारं वदति परञ्च अधिक
तृतीय अध्याये प्रथमे
तृतीय अध्याये प्रथमपादे द्वितीयसूत्रम् अधिकार तृतीय अध्याये प्रथमपादे प्रथमसूत्रं पञ्चम अध्याये चतुर्थपादस्य षष्टि अधिक एकशतं सूत्रपर्यन्तं अनुवर्तते एषु एव त्रिषु अध्यायेषु मीन्स् तृतीयाध्याय चतुर्थाध्याय पञ्चमाध्याय त्रिषु अध्यायेषु यत्र यत्र प्रत्यय इत्यनेन प्रत्यय शम्य भवति तत्र तत्र परच्च इति सूत्रमपि उपविशय पतति यत् अयं प्रत्ययः प्रकृति अनन्तरम् आयाति यत्र यत्र मीन्स् त्रिषु अध्यायेषु प्रभवित् भवति परच्च सूत्रं यदा वर्तमाने लट् वर्तमानार्थे धातुः लट् भवति अग्रिम अधिकारसूत्रं धातोः अपि च लट् प्रत्यये सम्यक् भवति प्रत्ययः इत्यनेन इत्यनेन धातोः पर एव आयाति परच्च इत्यनेन अनुवृत्तिसहितसूत्रं धातोः वर्तमाने लट् प्रत्यय परच्च
भवान् कर्तुं भवान् विवरणं कर्तुं शक्नोति वा
अधिकारसूत्रं त्रि ये परच्च सूत्रं त्रिषु अधिकारस्य प्रवृत्ति भवति यदा वर्तमाने लट् आगच्छति तदनन्तरं परच्च सूत्रस्य प्रवृत्तिः आगच्छति उदाहरणेन यदा अनुवृत्तिसहितसूत्रम् इत्युक्ते धातोः वर्तमाने लट् प्रत्यय परच्च धातु लट् लट् लकारस्य लट् लकारस्य प्रत्यय आगच्छति नन्द परच्चपि अनुवृत्ति आगच्छति
इत्युक्ते प्रत्यय इति पूर्वतन अधिकारं किं वदति इत्युक्ते यत्र यत्र विधिः भवति तस्य नाम तस्य संज्ञा भवति प्रत्यय इति अस्य परश्च इति अधिकारं किं वदति इत्युक्ते यत्र यस्य प्रत्ययः इति संज्ञा भवति तत् सर्वदा प्रकृतेः अनन्तरं परः एव भवति इति वदति प्रत्ययसङ्ख्या क्षम्यतां प्रत्यय इति संज्ञा भवति चेत् तत् सर्वदा प्रकृतेः परः एव भवति अनन्तरमेव आयाति इति वदति इत्युक्ते वर्तमाने लट् इति अस्ति लट् इति विहितमस्ति विधिः अस्ति अतः लट् इत्यस्य नाम भवति प्रत्ययः प्रत्ययः कथं कुत्र भवति इत्युक्ते प्रकृतेः अनन्तरमेव आयाति इति परश्च इति अधिकारं वदति
मीन्स् अस्मिन् सूत्रे यदि लट् प्रत्ययसंज्ञा न भविष्यत् तर्हि परच्च न आगमिष्यत् तस्यां दशायां लट् तु अद्यन्तौ टकितौ प्रथमसूत्रस्य प्रथमाध्याये प्रथमपादे षष्टि
षट्चत्वारि
इत्यनेन धातुः प्राक् अभविष्यात् किन्तु भू योगे लट् इति न अपि तु लट् प्लस् भू अभविष्यत् मीन्स् अपि अस्मिन् सूत्रे लट् प्रत्ययसंज्ञा न आगच्छति चेत् तर्हि परच्च नाम न भविष्यति परच्च सूत्रस्य प्रभावि न भविष्यति तस्य लट् तु अर्घ्यन्तौ सूत्रेण सूत्रेण धातोः प्राक् अभविष्यस्मिन् धातुः न अभविष्यति लड्मि न भविष्यति परच्छमि न भविष्यति इत्युक्ते भू प्लस् लट् इति न अभितु लट् प्लस् भू अभविष्यात् ऐसा आसक्तिः क्या मीन्स् लट् प्लस् भू न अभविष्यति मीन्स् मीनिङ्ग्लेस् भविष्यति
इत्युक्ते इत्युक्ते लट् इति प्रत्ययः न अस्ति चेत् लट् इति प्रत्यय इति संज्ञा न भवति चेत् तस्य टित् किल लट् इत्यस्य टकारः एव इत् अक्षरः अतः टित् आद्यन्तौ टकितौ इति सूत्रेण टित् आदिम आदि इत्युक्ते अग्रे भवति प्रथम अक्षर भवति एवं चेत् लट् योगः भू इति भविष्यत् परन्तु अत्र न किमर्थम् इत्युक्ते लट् इत्यस्य विधि प्रत्ययः न संज्ञा अस्ति अतः परश इति अधिकारमपि अस्य अत्र कार्यं कृत्वा सर्वदा धातोः अनन्तरमेव आयाति इति वदति नो चेत् टित् इति कारणात् आदिमक्षरं भवति तदेव अत्र उक्तमस्ति
भगिनि अद्य इदानीम् अहं वदामि वा अहं पठामि वा
पठतु भगिनि महोदय
तृतीयबिन्दुः धातोः तृतीयाध्याये प्रथमपादे एकनवतितमं सूत्रम् अधिकारः तृतीय अध्याये प्रथमपादे एकनवतितमं तः तृतीयाध्याये चतुर्थपादे सप्तदशाधिक एकशततमं सूत्रम् तृतीये अध्याये कृदन्तानां तिङन्तानां च विधायकसूत्राणि भवन्ति अस्मिन् तृतीये अध्याये धातोः सर्वत्र आगत्य वदति यत् यः कोऽपि प्रत्ययः विहितः सः धातोः अनन्तरं विहितः तृतीये अध्याये प्रथमपादे द्वाविंशतितः तृतीयाध्याये प्रथमपादे नवतिपर्यन्तम् अन्यत् सूत्रं तदेव समानं कार्यं करोति धातोः रेकाचो हलादेः क्रियासमभिहारे तदहं न जानामि भगिनि धातोः रेकाचे ओके धातोः रेकाच् इत्युक्ते धातोः एकाचे हलादेः क्रियासमभिहारे यङ् तृतीयव्यये प्रथमपादे द्वादशतमसूत्रं तत्र धातोः इति अधिकारसूत्रं द्वितीय द्वादश तृतीयपादस्य प्रथमपादपादे द्वितीय द्वाविंशति किल द्वाविंशति द्वाविंशतिसूत्रम् आरभ्य
धातौ एकः एव अच् अस्ति तदपि आदिम अक्षरं हल् अक्षरम् अस्ति चेत् सर्वदा धातुतः यङ् इति प्रत्ययः आयाति इति तस्य सूत्रस्य अर्थः भवति उदाहरणम् अष्टाध्यायी आप् मध्ये अहं दृष्टवती पुनः करणीयं यङ् इति प्रत्ययः पच् इति अस्ति चेत् पुनः पचति चेत् पा पच्यते रूपं भवति ज्वलति पुनः ज्वलति जाज्ज्वल्यते इति रूपं भवति अत्र यङ् इति प्रत्ययः आयाति धातोः अनन्तरम्
धातोः एक अच् अस्ति हल् हल् पूर्वं हल् धातु हल्
आदिमक्षरं हल् आदि अस्ति चेत् क्रियासमभिहारे इत्यस्य अर्थम् अहमपि न जानामि, परन्तु अहं यदा पठितवती तदेव वदामि. अत्र वयं पठितवन्तः मानचित्रम् इति पूर्वं पठितवन्तः किल, तत्र तृतीयसूत्रे मुख्यविषयः किम् इत्युक्ते प्रत्ययाः धातोः अनन्तरं के प्रत्ययाः विहिताः इत्येव मुख्य अंशः. तदेव अत्रापि दत्तमस्ति, पश्यतु धातोः इति अधिकारकारणादेव धातो सर्वे प्रत्ययाः धातोः अनन्तरमेव आयाति.
अस्तु, तत्र यङ् प्रत्ययम् अस्ति चेत् यङ् प्रत्ययं कदा आगच्छति इति, तत्र धातोः एकाचो हलादेः तद् क्रियासंस्कारे इत्युक्ते क्रियापदसिद्धि
अहं न जानामि, परन्तु पुनः पुनः करणम् एकं कार्यं कुर्मः चेत् तत्र यङ् प्रत्ययः भवति इति मम अभिप्राय. सत्यभामा भगिनी आगत्य अग्रे विवरणं करोति.
अद्य किम् अभवत् सा भगिनी, अस्माकं कृते पाठनं न अस्ति सा
भगिनी बहिः अस्ति इति एकवारं पठतु इति उक्तवती, सर्वे पठन्तु इति उक्तवती, तदेव अहमपि न जानामि भगिनि.
हा, चिन्ता मास्तु भगिनि, वयं परस्परं चर्चां कृत्वा किञ्चित्
आमां तदेव तदेव प्रचलति इदानीम्. अग्रे पठतु भगिनी, यथा निष्ठा इति
सा निष्ठा तृतीय अध्याये द्वितीयपादे द्व्यधिक एकशतं द्व्यधिक एकशतं तम सूत्रं निष्ठा एका संज्ञा अस्ति, सा स्तवदु इत्यनयोः प्रत्यययोः कृते संज्ञा अस्ति. निष्ठा इति एका संज्ञा अस्ति,
सा प्रत्यय तवत् प्रत्ययः तस्य नाम भवति निष्ठा इति, वयं पूर्वं पठितवन्तः 97 पेजस् एकं करपत्रं पठितवन्तः, तत्र आसीत् संज्ञासूत्रं
भवती स्मरणे किमपि नास्ति,
न अहं स्मरणे ममापि स्मरणे नास्ति, परन्तु अहं लिखित्वा लिखामि. आम् आं तदेव
सूत्रसङ्ख्या, पश्य सूत्रसङ्ख्याद्वारा बुद्धं यत् अस्मिन् सूत्रे प्रत्ययः धातोः परश्च इत्येषाम् अधिकारः, तर्हि अनेन सूत्रेण सा तवदु च भवतः तयोश्च प्रत्ययः संज्ञा स्तः अपि च परश्च इत्यनेन धातोः परं विहितौ भूते तृतीयपदे तृतीयाध्याये चतुरशीति इत्यतम सूत्र इत्यस्यापि अधिकारः, अतः भूतार्थे भवति अनुवृत्तिसहितसूत्रम् एवं धातोः निष्ठा भूते प्रत्ययः परश्च, उदाहरणं कृ योगे तवदु कृतवत् पुंसि कृतवान्. अस्तु, इदानीम् अवगतं. तत्र धातोः तत्र निष्ठा इति यदा संज्ञा अस्ति तद् प्रत्ययः धातोः परश्च इति
प्रत्ययः तवत् प्रत्ययः निष्ठा इति. इदानीं वयं सूत्रसङ्ख्यां पश्यामः चेत् तृतीयाध्याये द्वितीयपादे द्व्यधिक एकशततमसूत्रम् इत्युक्ते तत्र के अधिकाराः वयं पठितवन्तः, धातोः इति अधिकारः अस्ति, परश्च इति अस्ति, अनन्तरं प्रत्ययः इति अस्ति पूर्वं तस्य कार्यं प्रत्ययः इति अधिकारः पञ्चमाध्याये चतुर्थपादे षष्ट्यधिक एकशततमसूत्रपर्यन्तं कार्यं करोति, परश्च इत्यस्य अपि पञ्चमाधिकारे चतुर्थपादे षष्ट्यधिक एकशतसूत्रपर्यन्तं तस्य अपि अधिकारः प्रचलति. धातोः इति अधिकारस्यापि तृतीय अध्याये चतुर्थपादे एतत् किं सप्तदश अधिक एकशततमसूत्रपर्यन्तं तस्य अधिकारमपि प्रचलति. अस्य सूत्रस्य सङ्ख्या का इत्युक्ते तृतीयाध्याये द्वितीयपादे द्व्यधिकद्वयाधिक एकशततम एकशतं इत्युक्ते तत्र परस्य परश्च प्रत्ययः परश्च धातोः इति त्रय अधिकाराः कार्यं कुर्वन्ति. अतः अनुवृत्तिसहितसूत्राणां मध्ये एते शब्दाः भवति. मध्ये अन्यम् एक अधिकारमपि अस्ति भूते इति. भूते इति सर्वदा भूतकालार्थे एव भवति इति. तप्रत्ययः तवतु प्रत्ययः सर्वदा भूतकालमेव.
महोदय तत्र अन्यः एकः प्रत्ययः अस्ति तत्तु पठितम् एवम् अस्ति इति मन्ये.
आम् 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 तदेव त इत्यस्य तवतु इत्यस्य प्रत्ययस्य नाम भवति निष्ठा इति. अतः अत्र उदाहरणे तवत् प्रत्ययमेव दत्तमस्ति. परन्तु यदा भवान् उक्तवान् तप्रत्ययमपि वयं
गतम् इति तादृश
तदेव आम् गतः गता गतम् अस्तु. अग्रे पठतु भगिनि.
ज्ञाप्रातिपदिकात् ज्ञाप् प्रातिपदिकात् ओके चतुर्थाध्याये प्रथमपादे प्रथमं सूत्रम् अधिकारः चतुर्थाध्याये प्रथमपादे प्रथम सूत्रन्तः पञ्चमाध्याये चतुर्थपादे षष्ट्यधिक एकशतं तमसूत्रं चतुर्थे पञ्चमे चाध्याययोः यावन्तः प्रत्ययाः विहिताः ते सर्वे प्रातिपदिकेभ्यः ञन्तेभ्यः आबन्तेभ्यः वा आयान्ति. ओ किञ्चित् क्लेशमस्ति बिल्कुल् चतुर्थ तत्र तद् चतुर्थ
इदानीं पर्यन्तं वयं दृष्टवन्तः धातोः अनन्तरं विहिताः प्रत्ययाः इति वयं ज्ञातवन्तः. इदानीम् अस्य अधिकारस्य नाम किं प्रातिपदिकात् इति अधिकारे ये प्रत्ययाः विहिताः भवन्ति ते सर्वे प्रातिपदिकेभ्यः विहिताः सन्ति इति. प्रातिपदिके के प्रत्ययाः इत्युक्ते इङ्यन्त इत्युक्ते उदाहरणम् ऊङ् इति प्रत्ययः अस्ति व्यङ् इति अस्ति ष्प इति अस्ति ते सर्वे ज्ञाप्यन्त इति अहं चिन्तयामि. आपन्त इत्युक्ते आबन्तरूपाणि इत्युक्ते दाप् टाप् चाप् ते सर्व ये प्रत्ययाः यदा विहिताः सन्ति तस्य लौकिकरूपं सर्वदा स्त्रीलिङ्गरूपं भवति इति. आप् अन्तरूपाणि स्त्रीलिङ्गरूपाणि इति.
एक उदाहरणं जानाति वा? ज्ञाप्
आ इति अस्ति रमा इति अस्ति किल ज्ञाप् एव नीप् नीन् गौरी पार्वती इति शब्दमपि भवति.
पठामः अग्रे ज्ञानम् चिन्ता मास्तु.
अहमपि न जानामि अहं चिन्तयामि तदेव.
ञन्तेभ्यः आबन्तेभ्यः ओके ञन्तरूपाणि आबन्धरूपाणि च स्त्रीलिङ्गरूपाणि इति. अस्तु तर्हि आहत्य चतुर्थे पञ्चमे चाध्याययोः सर्वे सुबन्धविधायकसूत्राणि सन्ति तेषु सर्वे सुबन्धम् अस्तु. ओ तत्र नाम ञस् व्यस् इति तादृशम् आगच्छति तदेव ञन्तम् इति न जानामि.
ञस् न तत् न विभक्तिप्रत्ययः वा
सुबन्धविधायकसूत्राणि
सर्वे
सुबन्तम् इत्युक्ते नामपदं किल, रमा इति शब्दमस्ति, माला इति शब्दमस्ति एव.
अस्तु आबन्तम् अस्तु
प्रातिपदिकेभ्यः विहिताः सन्ति चेत् तत् नामपदमेव, धातोः विहिता धातुभ्यः विहिताः चेत् ते क्रियापदं तिङ् अथवा कृतन्तम्.
तेषु प्रत्ययेषु अस्तु सुबन्धविधायकसूत्राणि सन्ति, तेषु सर्वेषु यत् किमपि विहितं प्रत्ययः इत्यनेन यः विहितः तस्य नाम प्रत्ययः. अपि च यः विहितः सः सर्वत्र प्रातिपदिकात् ण्यन्तात् आपन्तात् वा विहितः भवति. तत्र किमपि सुबन्ध अनन्तरं किमपि प्रत्ययः वा प्रत्ययात् विहितः नो चेत् ण्यन्तात् आपन्तात् वा विहितः भवति इति तत्र उक्तम्. अस्तु धन्यवादः.
धन्यवादः भगिनी. श्यामला भगिनी भवती पूर्णं करोतु भगिनि संहितायाम् इत्यत्र आरभ्य. श्यामला भगिनी अस्ति वा?
श्यामला न भगिनि,
श्रीमाला नास्ति इति अहं चिन्तयामि. अहं पठामि वा नो चेत्? अहमेव पठामि. संहितायाम् इति षष्ठाध्याये प्रथमपादे एकसप्ततितमसूत्रतः षष्ठाध्याये तृतीयपादे एतत् किं चतुर्दशाधिक एकशततमसूत्रपर्यन्तं संहितायाम् इत्यस्य अधिकारः न अत्र अधिकारः संहितायाम् इति टु सेट्स् आफ् सूत्रसाध्य अधिक षष्ठाध्याये प्रथमपादे एकसप्ततितमसूत्र सूत्रमारभ्य षष्ठाध्याये प्रथमपादे एतत् किं षट्पञ्चाशत्यधिक एकशत तमसूत्रपर्यन्तम् एकः संहितायाम् इति एकः अधिकारः. अपि च षष्ठाध्याये तृतीयपादे चतुर्दशाधिक एकशततमसूत्रम् आरभ्य षष्ठाध्याये तृतीयपादे नवत्रिंशत्यधिक एकशत तम सूत्रपर्यन्तम् अन्यसंहितायाम् इति अधिकारः भवति. अत्र स्वरसन्धिविधायकसूत्राणि सन्ति, यथा यनसन्धिः, गुणसन्धिः, वृद्धिसन्धिः, सवर्णदीर्घसन्धिः इत्यादयः. प्रत्येकस्मिन् सन्धिविधायकसूत्रे संहितायाम् उपविश्य वदति यत् तदा सन्धिः भवति यदा वर्णयोः अतिसामीप्यं वर्तते, नाम अव्यविहिता स्थितिः. इत्युक्ते अतिसमीपे भवति चेत् सामीप्यम् अस्ति चेदेव सन्धिकार्यं भवति इति एतत् अधिकारं वदति. यथा गुणसन्धि विधायकसूत्रं भवति आद्गुणः षष्ठाध्याये प्रथमपादे सप्ताशीतमसूत्रम् अनुवृत्तिसहित सूत्रं भवति आत् अचि पूर्वपरयोः एकः गुणः संहितायाम्. अहमर्थं न जानामि, सन्धि श्री भगिनी आगत्य विवरणं करोति अग्रिमसप्ताहे. हलसन्धिः अष्टमाध्याये भवति, तत्रापि सन्धिः इत्यस्य कृते संहितायाम् अपेक्षते एव, परञ्च अत्र संहितायां षष्ठाध्यायस्य संहितायाम् इति न, अष्टमाध्याये एव अन्यत् सूत्रं वर्तते तयोर्व्यावचि संहितायाम् इति. अष्टमाध्याये द्वितीयपादे अष्टाधिक एकशततमसूत्रम् अस्मात् सूत्रात् संहितायाम् इत्यस्य अधिकारः भवति ग्रन्थस्य अन्तपर्यन्तम् इत्युक्ते संहितायाम् इति द्वे अधिकारे भवन्ति इति अहं चिन्तयामि. षष्ठमबिन्दु भवति अङ्गस्य इति अधिकारः. षष्ठाध्याये चतुर्थपादे प्रथमसूत्रम् अस्य अधिकारः षष्ठाध्याये चतुर्थपादे प्रथमपाद प्रथमसूत्रम् आरभ्य सप्तमाध्याये चतुर्थपादे सप्तनवतितमसूत्रपर्यन्तं प्रचलति. षष्ठाध्यायस्य चतुर्थपादस्य आरम्भात् आरम्भात् सप्तमाध्यायस्य अन्तपर्यन्तं यत्किमपि कार्यं विधीयते तत् कार्यम् अनेन सूत्रेण अङ्गे एव भवति. अतः अङ्गकार्यम् इत्युच्यते. कार्यं कुत्र भवति इत्युक्ते अङ्गे भवति. अतः अङ्गकार्यम् अङ्गस्य इति सूत्रस्य अधिकारः. तत्र यदा प्रत्ययः विधीयते तदा तस्मात् प्रत्ययात् पूर्वं यावत् अस्ति तत्सर्वम् अङ्गमिति वयं जानीमः. प्रत्ययस्य पूर्वं यद् भागं भवति तद् अङ्गं भवति. उदाहरणार्थं भूयोगः आयोगः ति भव योगः ति इति भवति. भवति इत्यस्य निर्माणसमये ति इत्यस्य दृष्ट्या अङ्गं भवति भव इति. ति इत्यस्मात् पूर्वं यावत् अस्ति तत्सर्वं ति इत्यस्य कृते अङ्गम्. तर्हि अत्र अङ्गं नाम धातुविकरणप्रत्ययोः संयुक्तरूपम्. यथा वद् योगः आ वद भूयोगः आ भव इत्यादीनि अङ्गानि. भवति इति उदाहरणे उदाहरणे आरम्भे भूयोगः आ इत्यस्य एतत् मूलरूपं किं भवति शप् इति. तस्य लौकिकरूपम् एव आ इति. इत् अच् इच् अक् इत् इत्यस्य निष्कासनात् अनन्तरं यत् रूपम् अवशिष्टं तदेव आ इति. एवं स्थितौ आ शप् प्रत्ययस्य दृष्ट्या भू इति अङ्गम्. भू पूर्वमस्ति किल. शप् प्रत्ययस्य प्रभावेन भू इत्यस्य अङ्गस्य गुणः भवति. भूयोगः आ भो इति भवति. भोयोगः आ इदं कार्यं शप् विकरणप्रत्ययं निमित्तीकृत्य भू इति अङ्गे भवति. अतः इदम् अङ्गकार्यम्. सूत्रमस्ति सार्वधातुकार्धधातुकयोः सप्तमाध्याये तृतीयपादे चतुरशीतितमसूत्रम्. अत्र अङ्गस्य इति सूत्रस्य अधिकारः. अनुवृत्तिसहितसूत्रं भवति सार्वधातुकार्धधातुकयोः गुणः अङ्गस्य. सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः वा परे अस्ति चेत् अङ्गस्य गुणः भवति. अवगच्छति वा? सर्वे अवगच्छन्ति किल अङ्गम्? वयं पठितवन्तः. आम्, इदानीं सप्तमबिन्दु पदस्य इति अधिकारः. अष्टमाध्याये प्रथमपादे षोडशसूत्रम् अस्य अधिकारं कस्य सूत्रात् आरभ्य इत्युक्ते अष्टमाध्याये प्रथमपादे षोडशसूत्रम् आरभ्य अष्टमाध्याये तृतीयपादे पञ्चपञ्चाशत् सूत्रपर्यन्तम् अस्य सूत्रस्य अधिकारः चलति. अष्टमाध्याये प्रथमपादे षोडश इत्यस्मात् आरभ्य अष्टमाध्याये तृतीयपादे पञ्चपञ्चाशत् पर्यन्तम् इदं सूत्रम् एकैकस्मिन् विधिसूत्रे उपविश्य सूत्रार्थं पूरयति. अत्र अलोन्त्यस्य इत्यनेन परिभाषासूत्रेण अस्य अर्थो भवति पदान्तस्य. अतः यत् कार्यं विशेषतः पदान्ते भवति तदस्य सूत्रस्य अस्य सूत्रस्य अधिकारे आयाति. न जान अवगच्छामि. अङ्गकार्यं कुत्र भवति इत्युक्ते अङ्गे भवति इति अङ्गपदस्य इति सूत्रं किल अलोन्त्यस्य इति परिभाषासूत्रमस्ति तत् परिभाषासूत्रम् इत्युक्ते कुत्र नियमं न सम्यक् भवति चेत् तत्र नियमकारणी इति वदन्ति किल अनियमे नियमकारिणी परिभाषा इति तदेव उक्तमस्ति अत्र उदाहरणे ऋत्वप्रकरणं दत्तमस्ति अष्टमाध्याये तृतीयपादे प्रथमसूत्रमारभ्य अष्टमाध्याये तृतीयपादे द्वादशसूत्रपर्यन्तम् अस्मिन् प्रकरणे वारं वारं ऋत्वं विहितं भवति ऋ इत्यस्य पुनः भवति सर्वत्र पदान्ते तदा रु स्थाने विसर्गः भवति विसर्गस्य स्थाने सकारः अतः रु विसर्गं भवति विसर्गम् इस् इति भवति अनेन सं योगः कृ योगः गञ् भवति संस्कारः अथवा संस्कारः सम् इति उपसर्गः उपसर्गः स्वयं पदम् अतः सम् इत्यस्य मकारः रु भवति ऋकारः विसर्गरूपे परिवर्तयति विसर्गम् इस् सकारः भवति अस्मिन् प्रकरणे रु इत्यस्मात् पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः अपरस्मिन् पक्षे अनुस्वारः आगमः चन्द्रबिन्दु भवति अथवा अनुस्वार विकल्पेन भवति इति तथैव कस्मिन् योगः चित् अत्र नकारः चन्द्रबिन्दुरूपे स्वीकरोति कस्मिंश्चित् इति भवति अथवा कस्मिंश्चित् इति अनुस्वारं भवति कान् योगः चित् कांश्चित् अथवा कांश्चित् अस्य पाठस्य सारांशः अयं यत् अस्माकं मनसि कानिचन मुख्याधिकारः सूत्राणि सन्ति चेत् तर्हि अष्टाध्याय्यां कीदृशकार्यं कुत्र भवति इति सौकर्येण ज्ञास्यामः अनेन मार्गेण शीघ्रमेव सर्वं संस्कृतव्याकरणं बुद्धिग्रहणे आगच्छति इति इत्युक्ते वयं कानिचन अधिकारसूत्राणि विषये अस्माकं ज्ञानं भवति चेत् वयं जानीमः कस्य कार्यं कदा भवति इति तदेव अत्र उक्तमस्ति एकं मानचित्रम् अष्टाध्याय्याः मानचित्रं पाठं पूर्णम् अभवत् वयं किं कुर्मः सत्यभामा भगिनी वयं पठितवन्तः सर्वे पूर्णम् अभवत् अत्र समापयामः वा
अस्तु
शिवा महोदय भवान् कर्तुं शक्नोति वा मङ्गलं करोति वा
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः धन्यवादः
धन्यवादः